जम् वाम् मधुमत्तमः सुतः सोमरतावृधा तमश्विना पिबतन्तिरो अह्यम् धत्तम् रत्नानि दाशुषे त्रिबन्धुरेण त्रिव्रता सुपेशसारथेनाया तमश्विना कण्वा सोमाम् ब्रह्म गृण्वन्त्यध्वरे तेषाम् सुशृणुतम् हवम् अश्विना मधुमत्तमम् पातम् सोममृतावृधा अथाद्यदस्रावसुबिभ्रता रथे एदाश्वाम् समुपगच्छताम् त्रिषधस्थे बर्हिषि विश्ववेदसामध्वा यज्ञम् मिमिक्षताम् कण्वा सोमाम् सुतसोमा अभिद्यवो युवाम् हवन्ते अश्विना याभिः कण्वमभिष्टिभिः प्रावतै युवमश्विना ताभिश्वा अस्माम् अवतम् शुभस्पते पातम् सोमव्रताव्रता सुदासे एदस्रावसुबिभ्रता रथे प्रक्षो वहतमश्विना रयिम् समुद्रादुतवा दिवस्पर्यस्मे धत्तम् पुरुस्पृहम् यन्ना सत्यापरापति यद्वास्थो अधितुर्वशे अतो रथे न सुवृता न आगतम् साकम् सूर्यस्य रश्मिभिः अर्वाञ्च वाम् सप्तजोऽध्वरश्रिजो वहन्तु सपने दुपा इषम् प्रञ्चन्ता सुकृते सुदानव आबर्हिस्सीदतन्नरा तेन न सत्यागतम् रथे न सूर्यत्वचा येन शश्वदोहथुर्दाशुषे वसुमध्वः सोमस्य पीतये उक्थेभिरर्वागवसे पुरो वसो अर्कैश्च निह्वजामहे शश्वत्कण्वानाम् सदसि प्रियेहि कम् सोमम् पपथुरश्विना